इहोपनादसो न पातस्सौधन् वनार्भवो मापभूत अस्मिन् हि वस्वने रत्नधे जङ्गमन्त्रिन्द्रमनुवो मदासः आगन्नृगूनामिह रत्नधे जमभूत् सोमस्य सुषूदस्य प्रीतिः सुकृत्ययाजस्व पस्यया चाङ्गेकम् विचक्रतमसम् च दुर्धाणोदतमसम् च दुर्धा सखेऽपि शिक्षेत्य ब्रवीत अथीतवाजामृतस्य पन्थाम् गृहम् देवानामृभवस्वहस्ताः किम् मयस्विच्चमस एष आसयम् काव्येन चतुरो विचक्र अथा सुनध्वंसवनम् मदाय पातर्भवो मधुनः सोम्यस्य सत्याकर्तपितरायुमाना सत्याकर्तचमसम् देवपानम् सत्याहरिधनुतरावतष्टेन्द्रवाहाभिभवो वाजरत्नाः गोपस्नोत्यभिद्वेयाह्नाम् जीव्रम् वाजासवनम्मदाय तस्मै रजिवृभवः सर्ववीरमाचक्षतवृषणो मन्दसानाः प्रातः सुतमविभो हर्यस्वमाध्यम् दिनम् सवनम् केवलम् ते स मृभुभिः पिबस्वरत्नजेभिः सखीन्द्रजगृहे सुकृत्या ये देवासो अभवता सुकृत्या सेना जिवेदधि जिविनिषेद ते रत्नम् धातसवसो न पातः सौधन् वना अभवता मृता सह यत्तेजम् समानम् रत्नधेयमकृणुध्वम् सुपस्यासु हस्ताः तदृभवः परिषिक्तम् वजेदत्संवदेभिरिन्द्रियेभिः पिबध्वम्